हरि ओम् सर्वेभ्यः नमस्कारः येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। गतकक्षायां किमधीतम् इति किञ्चित् पश्यामः। इको एणसि इति सूत्रेण सुधी उपास्यः इत्यत्र यणादेशः कृतः। तत्र च यणादेशे कृते हकारस्य द्वित्वं भवति वा न वा इति प्रश्नः। अनसि च इति सूत्रेण अचः परस्य यरः द्वेवास्तः न तु अचि इति उकारात् परस्य धकारस्य यकार्यपरे द्वित्वं करणीयं, किन्तु तत्र द्वित्वनिषेधस्य आपत्तिः आसीत्। कथमापत्तिः? स्थानिवदादेशः नञ्जिभवति। यदि आदेशः स्थानिवद् भवति तर्हि यकारः ईकारवत् स्यात्, ईकारश्च अच् भवति, तस्मात् अनचि च इति विहितं द्वित्वम् अत्र न प्राप्नोति इति आशङ्का। तत्र समाधानमपि तस्मिन्नेव सूत्रे अस्ति। अनल्विधौ अल्विधौ स्थानिवद्भावः नास्ति। ईकारः अल् तम् आश्रित्य विधीयमानं कार्यं तस्मिन् कर्तव्ये स्थानिवद्भावः न भवति इति तस्याः शङ्कायाः निवारणं कृतम्। किन्तु अल्विधावपि क्वचित् स्थानिवद्भावः वर्तते। अजः परस्मिन् पूर्वविधौ परनिमित्तः अजादेशः स्थानिवत् स्यात्, स्थानिभूतादतः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। त्रयः नियमाः भवन्ति अस्य सूत्रस्य। परनिमित्तत्वं स्यात्, अजादेशत्वं स्यात्, पूर्वत्वेन दृष्टस्य कार्यं कर्तव्यं स्यात्। त्रयः अपि नियमाः सुध्युपास्यः इत्यत्र सन्ति। यतोहि ईकारस्य अचः आदेशः यकारः, परम् अचम् अचि इति अचं निमित्तीकृत्य आदेशः कृतः, तस्मात् पूर्वत्वेन दृष्टस्य धकारस्य द्वित्वं कर्तुम् इष्यते। तथा सति अतः परस्मिन् पूर्वविधौ इति सूत्रेण स्थानिवद्भावः अस्तु। स्थानिवद्भावे सति द्वित्वं न भवति इति पुनः आशङ्कायां कृतायां स्थानिवद्भावस्य निषेधः उक्तः। न पदान्तद्विर्वचनवरे यलोपस्वरसवर्णानुस्वारदीर्घदश्चर्विधिषु इति सूत्रेण द्विर्वचनविषये स्थानिवद्भावनिषेधः पाणिनिनैव कण्ठतः उक्तः। तस्मात् तत्र स्थानिवद्भावः नास्ति, द्वित्वञ्च निर्बाधम् इति स्थितिः। एवं धकारस्य द्वित्वं यणोमयोद्वेवाच्ये इति सूत्रे यणः इति षष्ठी, मय इति पञ्चमी इति पक्षे यकारस्यापि द्वित्वम् इति कृत्वा सुध्युपास्यः इत्यत्र चत्वारि रूपाणि सम्भवन्ति इति ज्ञातम्। ततश्च मधु अरिः मध्वरिः इत्यत्रापि सैव स्थितिः। यथा सुध्युपास्यः तथा मध्वरिः इत्यत्रापि चत्वारि रूपाणि सम्भवन्ति। ल्यु आकृतिः लाकृतिः इत्यत्र तु एकमेव रूपम्, यतोहि तत्र द्वित्वं कर्तुम् अचः परस्य यरः इति यर्वर्णात् प्राक् अच् अपेक्ष्यते। लाकृतिः इत्यत्र तु ल् लकारात् पूर्वं कोऽपि वर्णः नास्ति इत्यतः द्वित्वस्य प्रसक्तिरेव नास्ति। तस्मात् द्वित्वाभावे लाकृतिः इति एकमेव रूपम्। धात्रंशः इत्यत्र किं भवति इति बहूनां सन्देहः स्यात्। धातृ अंशः ऋकारस्य अचिपथे रेफादेशे कृते धात्रंशः इति जाते। तकारस्य अनचि च इत्यनेन द्वित्वं सम्भवति। तस्मात् रूपद्वयं, धात्रंशः इति एकतकारकम् एकं रूपं, धात्रंशः इति द्वितकारकम् एकं रूपम्। किन्तु यणोमयोद्वेवाच्ये इत्यनेन रेफस्य द्वित्वं भवति वा इति प्रश्ने सति न भवति। रेफस्य हकारस्य च क्वापि द्वित्वं न भवति। कुतो न भवति इति अद्यतनकक्षायां पश्यामः। किन्तु रेफा एण्ड् हकार आर् टु लेटर्स् विच् नेवर् गेट् द्वित्वा। सो इन् धात्रंशः वि एण्ड् अप् ओन्लि टु फार्म्स्, वन् वित् टु तकार एण्ड् अदर् वित् अ सिङ्गल् तकार, धात्रंशः एण्ड् धात्रंशः। So now, to move on, we started the topic of dvitva with Anachicha. Anachicha said, Atah parasya yaraha dvevastaha. There are a few more sutras which also tell doubling of letters. So moving on, after Yansanti, Dikshita, since he started with the topic of dvitva, he carries on with seeing where else do we get dvitva and where do we have dvitva nishedha. So in that, the first thing we study is the nishedha of dvitva. Anachicha was a sutra which gave dvitva, but there are some sutras which tell that this dvitva which will not apply in some cases. Keshuchana prayogeshu dvitva na bhavati. Kutra dvitva. Nadinyakroshe kutrasya. Iti agrimam sutra. Chatvari padani santi. Na adini akroshe kutrasya. Adini iti saptam yanta. It's actually a saptam yanta, but we do not hear the saptami vibhakti because there is sautratva loka. The saptami vibhakti was there, it has been deleted. So adini means adini shabde pare. Putrasya putra shabdasya na kim na achoraha bhyam dve iti sutra dve iti anuvarta. Yarona nasikena nasikova iti sutrena yaraha ityapi anuvartate. Ahatya sutrartha kaha putra shabdasya na dvestaha adini shabde pare akroshare gamyamane iti sutrartha. Putra shabde yaha yarvaranaha. Asatu putra ityatra pakara, ukara, takara, repha, akara. Tatra takarasya अग्रिमे अग्रे पश्यामः तकारस्य अनुचित इत्यनेन द्वित्वं प्राप्नोति. हु इत्यत्र उकारः अच् अचः परस्य यरः तकारस्य अनचि परे रेफे परे द्वित्वं स्यात् इत्यनेन पुत्रः इत्यत्र तकारस्य द्वित्वं प्राप्नोति. किन्तु आदिनी शब्दे पदे द्वित्वं न भवति. उदाहरणं दत्तमस्ति दीक्षितैः. पुत्रादिनी त्वमसि पापे. पुत्रादिनी इति शब्दः. पुत्रान् अस्ति इति पुत्रादिनी इति समासः. पुत्र इत्यस्मात् आदिनी शब्दस्य परत्वमस्ति. पुत्र इत्यत्र कथम् पु उ क ऋ अ उकारः अच् तकारः यर् रेफः न अच् अचः परस्य यरः द्वेवास्तः न तु अचि इति सूत्रेण अत्र dvitvam prapnoti. If you have just plain putra shabda, it is actually written with two takaras. I forgot to include it here, but it's, putra is generally written with two takaras. Because anachicha gives dvitva for takara here. But this sutra, nadinyakroshe putrasya tells, if putra shabda is followed by adini shabda, in a samasa you have putra shabda followed by adini shabda, then dvitvam na. You will not get dvitva. There is also one more condition. Akroshe gamyamane. Akrosha is when you expressing anger. That is when putradini is indicated as an expression of anger against somebody. If you look at this expression, putradini tvamasi pape. Somebody is condemning another woman, saying putradini, putranasi. Literally it means she who eats her children. Adabhakshane is the dhatu. Adini is derived from that. So putradini is a woman who eats her own children. See, eats is not literally. It means she who is responsible for the death. She who kills her children or who is responsible for the death. Something like that. So when you are in such a case, so this is very context specific sutra. Akroshe gamyamane, when it is indicating anger against that person, and when you have putra shabda which is followed by adini shabda, then there is no dvitva. You see, in putra adini there is a single sakara which is followed by putra adini tvamasi pape. Why so much specification? What happens if it is actually somebody who he gives an example, counter example. Akroshe kim tattva kathane dvivachanam bhavatyeva putradini sati. see here, putrajini, this is how putra shabda is normally written, with two takara, the takara doubled. So here also you have putra shabda which is followed by ajini shabda, but there is no akrosha. This is not indicative of any anger. It is just a statement of a fact that a serpent eats it eats the children or eats its kids or the snakes. So, tattva kathane, when you are actually stating the fact, virvachanam bhavateva, you do get virvachana. Dvitva is there. So, when there is no dvitva, it's just indicative of the fact that it is an expression of anger. Nadini akroshe putrasya, akroshe gamyamane, putra shabdasya dvitvam na bhavati. So, if it is with dvitva, it means that it is a fact that there is something which is eating its progeny. Whereas, when there is dvitva nishedha, when dvitva is prohibited, it indicates that it's an expression of anger. Okay? So, nadinyakroche putrasya. Putra shabdasya adini shabde pare dvitvam na bhavati akroche gamyamane. Asya sutrasya vartika dvayam asti. There are two vartikas which add on to this sutra. So, takparecha is the first vartika. It tells adini shabda parake putra shabde pare. Takpare means putradini is the shabda which we were dealing with in the previous, in the sutra. Adini shabde pare putra shabdasya. Takpare, it has been followed by putradini. Putra shabda vayasya rahanad. Putra putradini, putrasya putran asti, she who is responsible for the destruction of sons, that is the children of her sons, grandchildren, is putra putradini. So all conditions of the sutra apply. So for this putradini shabda, from nadinyatroshe putrasya, you get vipanishetha. For this putra, for the previous word, putradini shabde pare, putra shabdavayose rahat dvitvam na is what tatpareta tells. Putradini shabde pare dvitvam na bhavati. Therefore, in both cases, you do not have dvitva. This vartika. Next vartika tells, va hatagaddhayoho. Nadinya adini iti nasti. Na putrasya. Putra shabdasya dvitvam na bhavati. Iti purva sutra nasti. Tatra va. Putra shabdasya dvitvam va bhavati. Tada hata shabde gaddha shabde cha pare. Hata shabde gaddha shabde cha pare. Putra shabda vayavasya raha dvitvam va bhavati. Vikalpena dvitvam bhavati. This mandates an optional dvitva for the takara of putra shabda when it is followed by either hata shabda or gaddha shabda. Putra hati. She who kills her children, putra jaddhi is again in the same meaning, the adhathu, adhojaddhir yaktikiti, iti sutrena, adhathoho jaddha adeshaha, putran bhakshayati, ityeva arthaha, putra jaddhi, ubhayatra vikalpena dvitvam bhavati, hati hata shabde pare, jaddha shabde pare, putra shabdasya va dvitvam, it's an optional dvitva. So you can either, there is a form with the two takaras and there is a form without the takara. Right? So this is Nadinyakroshe Putrasya and two vartikas. Nadinyakroshe Putrasya iti sutrena adini shabde pare putra shabdasya dvitvam nishidhyate. Tatparecha iti sutrena putradini shabde pare putra shabdasya dvitvam nishidhyate. Vahata jakriyoho iti vartikena hatashabde gaddhashabde cha pare putra shabdasya dvitvam vikalpyate vikalpena dvitvam bhavati. This sutra, so continuing with the dvitva nishedha, coming the sutra krama, we had nadinya akroshe putrasya. The next sutra is triprabhrutishu shakatayanasya. One note which I'd like to make before this, I told in my introductory classes that Panini was not the first system of grammar for Sanskrit. So even before Panini, we had many people who have written their own systems of grammar. And Panini himself mentions about 10 different acharyas in the sutras. So in many sutras, he mentions an acharya by name. So this is one such sutra where Shakatayana. Shakatayana was another grammarian who existed before Panini. He is a Vaiyakarana. He has written his own system of grammar. So what Panini does is, in some cases, he quotes the name of an acharya and tells, according to this acharya, this is the form. Which means that Panini himself has something else in mind. Panini declares something else and then says, according to that acharya, it's something different. What we do actually is, we take all such sutras end up being optional. That is, if you are following Panini, you will get one form. If you are following the other acharya, you will get other form. But we take both acharyas as pramana, and therefore for us, all such sutras will end up being optional sutras. Right? So here, it's one such sutra where he says, Triprabhatishu Shakatayanasya. Shakatayanasya mate. Shakatayanasya acharyasya mate. Triprabhatishu Dvitvamna. According to Shakatayana, Panini is saying something. Let's see what it is. Paradvayam asti Triprabhatishu Shakatayanasya. Achorahabhyam vetyataha dveti anvartate. Nadinyakroshe putrasya etyataha na iti anvartate. Dve na. Achyate dvitvam na bhavati. Kada na bhavati. Shakatayanasya mate dvitvam na bhavati. Yet only Shakatayanasya iti sutre uktam. Kada. Triadishu varneshu sanyukteshu. Triprabhatishu. Achyate. Trayanam. Tadadhikanam va varnanam. Yatra sanyogaha asti. Sanyogaha nama halonantara sanyogaha. Conjunct consonants are called sanyoga. It's called a sanyoga. When there are two or more consonants joining, it is a sanyoga. So Shakatayana, according to Shakatayana, if there are three or more consonants in conjugation, then there is no dvitva happening. Okay? So that is why this it says va dvitvam. Va means optional. According to Shakatayana, there is no dvitva. According to Panini, there is dvitva. So we club both together and say there is an optional dvitva. You can either do dvitva or not. So you have Indra Shabda. How is it? You have Indra, where you have E, N, D, R, A, Ikaraha Ach, Nakaraha Yar, Nakaraha Na Ach. Anachicha iti sutrasya sarve niyamaha santi. Achah parasya yaraha dvevastaha natu achi. Ityanena Panini mate nakarasya dvitvam bhavati. Dvitve sati indraha iti nadvayam drishyate. Kintu atra trayanam varnanam sanyogaha N, D, R. Tasmata Triprabhutishu Shakatayanasya iti sutrena Shakatayanasya mate vidvabhave indraha iti ekanakaraham rupo. Ayomeva rashtram sh t r iti trayanam varnanam sanyogaha asti tatra shakarasya dvitve idam rupam vidvabhave rashtram iti samanyam rupam. Sarvatra shakalyasya shakalyasya iti aparaha kashchana acharyaha. Shakalya is the name of another rishi who had composed grammar before Panini. So, Sarvatra Shakalyasya Padadvayam Achoraha Abhyaham Dvetyataha Dveiti Nadinyakroshe Putrasya Etyataha Na Iti Anuvartate Dvitvam Na. Shakalyasya Mate Dvitvam Na Bhavati Putra Na Bhavati Sarvatra Na Bhavati. According to Shakalya, there is no Dvitva anywhere. He does not accept the concept of dvitva. He just says there is no dvitva anywhere. Okay. So according to Shakalya, if we take Shakalya and Panini, we'll end up saying that all dvitva is optional. You can either do the dvitva or not do the dvitva. Okay. Examples given are Arkaha and Brahma. In both these cases, you should see that it is not Anachicha which is applied. Atra ubhayatra anachicha ityanena dvitvam na bhavati. Achoraha abhyam ve iti agre sutram asti. We will study this particular sutra next, immediately afterwards. So I think we'll come back to this example later. Or maybe you can just see. In Panini Mata, you will get Dvitva. There is two Kakaras and two Makaras. How? The Dvitva, you have Atkaha. The Achoraha Bhyam tells, then there is Ach, which is followed by Repha, which in turn is followed by an Yer Varna. The Yer Varna will get Dvitva. Achah Paraha Yaha Rephaha, Tasmat Paraha Yaha Yer Varnaha, Tasya Dvitvam Bhavati. You have Akaraha Ach, Repaha, K iti Yarvarnaha, Tasya Dvitve, Akkaha, iti Kakarasya Dvitva. Eva meva, Brahma ityatra, Atahparaha yaha Hakaraha, Hakara Parasyapi yaraha, Dvitvam Bhavati, Tasmati Brahma. So, we see this actual sutra later, but in, according to Shakalya, there is no Dvitva. According to Panini, we have Dvitva. Dirghad Acharyana. Acharyana, in this sutra, Panini does not mention any particular Vayakarana by name. He just says Acharyana, means according to some Acharyas, according to some scholars, Dirghad Vipramna means, again you have Dirghad and Acharyana. Dve iti na iti cha anuvartate dvitvam na keshanchit acharyanam mate dirghat parasya yarah dvitvam na bhavati. Anasicha tells, if there is an ach followed by yar, it will get dvitva. If that ach happens to be a dirgha, then according to some acharyas, there is no dvitva. Datram patram akarah ach, datram akarah ach takarah yar Repaha na ache. Atah paraste yaraha dvevastaha na tochi. Ityanena dvitvam prapnoti. Dirghad acharyana. Dirghad paraste dvitvam na bhavati. Ityuktatvat keshanchanamate datram. Iti dvitva rahit, dvitva vihinam rupam. Panini mate tu dvitve sati datram. Iti dvitakaram. Evameva patram ityatrapi. Dvitva nisheda sutrani chatvari nadinyakroshe putrasya triprabhatishu shakatayanasya sarvatra shakalyasya dirghad acharyana. Tatra nadinyakroshe putrasya tyatra paninireva dvitvam na iti vadati. Saha sarvatha nishedha. Anyatra triprabhatishu shakatayanasya sarvatra shakalyasya dirghad acharyana iti sutratraye Anyesham acharyanam mate dvitvam nasti, Panini mate dvitvam bhavati, arthat vikalpaha. These three sutras end up being optional. Next we will see the sutra from where the dvitva prakarana actually started. Even in Anarticha, we do not hear that dve. The dve was an anuvritti from Achorahabhyam dve. So Achorahabhyam dve is the first sutra in this particular dvitva prakarana. This is where Panini starts dvitva. Padatraya masti. Achaha rahabhyam dve. Yarona nasikena nasikova iti purva sutrat yaraha iti anuvartate va iti cha anuvartate. Kaha achaha. Achaha iti panchami vibhakti. Tasmadityuttarasya iti paribhashaya achah parasya iti arthaha. Rahabhyam iti api panchami. Repahakarabhyam parasya ityartha. So there are two panchamis. So it means a successive following. There is an ach which is followed by repha or hakara. Raha. Which in turn is followed by something. That is why we did the dvivachana here. Because this achaha refers to rahabhyam. When ach is followed by repha or hakara, which in turn is followed by yar. Yaraha ityanuvartha. Shashti vibhakti dve iti atraiva shruyate prathama vibhakti dveha dve saha dvitvam bhavati achah parabhyam repahakarabhyam parasya yaraha dvitvam bhavati sa eva sutra artha achah parabhyam repahakarabhyam parasya yaraha dve va iti anuvartate va saha hari anubhavah अस्ति हरेः अनुभवः इति समासः इकारात् अचिपरे इको यणचि इति सूत्रेण यणादेशः हर यु अनुभवः इदानीम् अत्र अकारः अच् तस्मात् परः रेफः तस्मात् परः यकारः यर्वर्णः अचः पराभ्यां रेफहकाराभ्यां परस्य यरः द्वे वास्तः द्वित्वे सति यकारद्वयं हर्ग्यनुभवः इति रूपम्। एवमेव नह्यस्ति इत्यत्रापि इको यणति इत्यनेन यणादेशः हकारात् परस्य अकारः अच् अचः परस्य हकारः हकारात् परः यः यर्वर्णः यकारः तस्य द्वित्वे नह्यस्ति इति रूपं भवति। एवम् अचोरहाभ्यां द्वे इति सूत्रम्। इदानीम् अस्यां दशायां नह्यस्ति हर्यनुभवः इत्यत्र यकारद्वयं श्रूयते। इदानीम् अपरं सूत्रमस्ति हलो यमां यमि लोपः। चत्वारि पदानि सन्ति हलः यमां यमि लोपः। झयोः अन्यतरस्य इति पूर्वतनं सूत्रं तस्मात् अन्यतरस्याम् इति अनुवर्तते। अन्यतरस्याम् इत्यस्य वा इत्येव आप्शनल्। अन्यतरस्याम् आल्वेज् मीन्स् आप्शनल्। नेक्स्ट् सो वाट् आर् द पदार्थास् यू हाव्। हलः इति पञ्चमी विभक्तिः तस्मादित्युत्तरस्य इति परिभाषया हलः परेश केषां यमां यमाम् इति षष्ठी यं वर्णानां स्थाने यम् इति प्रत्याहारः हयवरट् इत्यत्र यकारादारभ्य यमगणनम् इत्यत्र मकारपर्यन्तं प्रत्याहारः यवरल यमगणन इति नववर्णाः सन्ति। एतेषां वर्णानां स्थाने यमि पदे यं नाम पुनः स एव प्रत्याहारः किन्तु इदानीं सप्तमी विभक्ति यं वर्णे परे लोपः स्यात्। लोपः इति प्रथमा विभक्तौ विधीयते। हलः परेषां हलः पदस्य यमः लोपः स्यात् वा अन्यतरस्याम् इति कृत्वात् वा यमि। कथं हरि अनुभवः इति अस्माभिः पूर्वं किं कृतं हरि अनुभवः इत्यासीत्। यणादेशः कृतः यणः द्वित्वं कृतम् अचोरहाभ्यां द्वे इत्यनेन यकारस्य द्वित्वं कृतम्। इदानीं रेफः हल् हलः परस्य यमः यकारः यं वर्णः यमि परे यं वर्णे परे यकारस्य यकारे परे लोपः स्यात्। लोपः इत्यनेन मध्यम यकारस्य लोपः भवति। लोपे सति हर्यनुभवः इति एक एव यकारः शिष्यते। So we did dhitva for yakara. And now, from this sutra, halo yama mimi lopaha, we are deleting the yakara. Right? So the question is, why? What's the point? I mean, when you did a dhitva and you removed the dhitva, so obviously there is one form with the dhitva. Since the lopa is a vikalpa, there is one, you end up with two forms. One is with two yakara, haryanubhavaha, and the other is with one yakara, which is haryanubhavaha. But the question still remains, do we need this sutra? Do we need haloyama mimilopaha? Because dhitva itself is optional. When, if we go back to the previous slide, when we are doing achorahabhyam dve, and you are doubling the yakara, achorahabhyam dve is a vikalpa sutra. यरोनुनासिकेन नासिको वा इत्यनेन वा इति अनुवर्तते। अजः पराभ्यां रेफहकाराभ्यां परस्य यरः वा द्वित्वं भवति। सो इट्स् एन् आप्शनल् द्वित्वा। सो वेन् यु डू द्वित्वा यु हेव् अ फार्म् वित् टु यकार एण्ड् वेन् यु डोण्ट् डू द द्वित्वा यु हेव् अ फार्म् वित् वन् यकार। सो यु गाट् बोत् फार्म्। नौ वै डू नीड् दिस् लोप? इवन् विदौट् द लोप यु हेव् दिस् फार्म् वित् वन् यकार। If the point of this sutra was to derive this form, we already have this form ready because dhitva is optional. If we do not apply the dhitva, we have this form with just one yakara. Iti lopa pakshe, dhitva bhava pakshe cha, ekayam lupam tuliyam. Lopa pakshe, adhyata achorahabhyam dvetyanena dhitve krute, ततः हलोयम व्यमिलोपः इति लोपे कृते द्वित्वाभावपक्षे द्वित्वमेव न क्रियते चेत् तदापि एकयम् एकः यकारः यस्मिन् तत् एकयम् एकयम् रूपं तुल्यम् यु एण्ड् अप् वित् द सेम् फार्म् विच् इस् अ फार्म् वित् वन् यकार सो वै डु यु नीड् दिस् सूत्र वै डु वि नीड् हलोयम व्यमिलोपः लोपारम्भफलं तु आदित्यो देवता अस्येत्यादित्यं भविः इत्यादौ So he says, the lopa is required, not for this case perhaps. In this case, even without the sutra, you can manage. But there is a form. It says, Adityaha Devata Asya, Satya Devata, it is Adhita Prakarane, Havihi. We are referring to some Havis, which is meant for Aditya, Surya. So Adityo Devata Asya, the Havis, which is meant for Aditya. So in this sense, आदित्य शब्दात् न्य प्रत्ययः क्रियते वि एड् अ सफिक्स् न्य टु आदित्य द सूत्र इस् दित्यदित्यादित्य प्रत्युत्तरपदान्यः दिति अदिति आदित्य इत्यस्ति आदित्य शब्दात् न्य प्रत्ययः भवति तस्य देवता इत्यर्थे न्य प्रत्यये नकारस्य चुटु इति संज्ञा भवति तस्य च लोपः भवति य इत्येव शिष्यते आदित्य य इत्यस्ति इदानीं यस्येति च इति सूत्रमस्ति तेन अकारस्य लोपः क्रियते तद्धित प्रत्यये परे यका अकारस्य लोपः भवति आदित्य य इति स्थिते अत्र अकारस्य लोपे आदित्य य इति जातम् इदानीम् अत्र पश्यामश्चेत् हल् अकारः हल् ततः परः यं वर्णः ततः परः यम् हलो यमां यमि लोपः इति सूत्रेण मध्य यकारस्य लोपे कृते आदित्यम् आदित्यो देवता अस्य इति आदित्यं भविः अत्र एकयकाररूपं साधनीयं द हलोयमामिलोपः इस् मेण्ट् फर् दिस् वि नीड् अ सिङ्गल् यकार हियर् इफ् वि डिड् नाट् हाव् हलोयमामिलोपः देन् वि वुड् स्टिल् बि लेफ्ट् वित् टु यकारस् देर् इस् नो अदर् सूत्र विच् केन् टेक् आफ् दिस् यकार सो दट् इस् द एक्चुअल् यूसेज् आफ् हलोयमामिलोपः But since it has a chance for application even in Hadvina Bhavaha, we apply it. That's all. Right? So, Loparambha Phalam Tu, Haloyamam Yumi Lopaha Iti Loparambha Phalam Tu, Adityo Devata Asya Iti Adityam Havihi Iti Adav, Etadrisheshu Rupeshu, Haloyamam Yumi Lopaha Iti Asya Upayolaha Kriyata. Okay, let me finish this sutra and go back to a point which I wanted to make. Now, halo yamam yami lopaha isti. Mahatmyam iti rupam sarvaihi shrutam iti mani. Mahatmanaha bhavaha mahatmyam. Mahatmyam iti atra. Takaraha halvaranaha. Makaraha yamvaranaha. Yakarashta punaha yamvaranaha. Halo yamam yami lopaha. हलः परस्य यमः लोपः स्यात् यमि इत्यनेन मकारस्य लोपः भवतु इत्यापत्तिः ऑब्जेक्शन् इस् सिन्स् यु सेड् हलो यमां यमि लोपः इवन् इन् माहात्म्यं यु हाव् द कण्डीशन्स् बीङ्ग् सेटिस्फैड् यु हाव् अ हल् वर्ण सकार विच् इस् फालोड् बै अ यम् वर्ण मकार विच् इन् टर्न् इस् फालोड् बै अनदर् यम् विच् इस् यकार सो विल् द मकार गेट् लोप बै हलो यमां यमि लोपः Mahatmyam, always we hear the makara. There is no rupa with the makara lopa. So how do we do it? Yamam yami iti yatha sanshivijyanat neha mahatmyam tadatmyam. Tadatmyam ityatrapi tathaiva. Tadatmanaha bhavaha. Sakaraha hal makaraha yam yakaropi yam. Halo yamam yami lopaha ityatrapi prasakti asti. Kintu yatha sanshivijyanat. यथासङ्ख्यसमानाम् इति एकं सूत्रमस्ति दिस् सूत्र वि सी मच् अहेड् इन् द कौमुदी एक्चुलि इट्स् द 128 सूत्र इन् द सिद्धान्तकौमुदी बट् सिन्स् वेन् देर् वास् अ मेन्शन् आफ् यथासङ्ख्यम् ऐ जस्ट् थाट् ऐ टेल् यू अबौट् दिस् सूत्र नौ यथासङ्ख्यम् अनुदेशः समानाम् इत्यस्ति अनुदेशः नाम विधिः आदेशः इत्यस्ति samanam anudeshaha yathasankhyam syat samasambandhi vidhi. That is, wherever you have a vidhi, any karya, in which the number of sthanis and the number of adeshas is the same. That is, you have 4 and 4, or 3 and 3, or 5 and 5. Wherever you have the same number, then you can apply something called yathasankhya. Yathasankhya just means respectively or in order. That is, if there is something which says replace kavarga letters with shavarga letters, then replace the first letter of kavarga with the first letter of shavarga. Kha is replaced by cha. Kha is replaced by cha. Ga by ja. Gha by cha. And na by nya. That is yathasankhya. Yathasankhya always means in order. And you can apply this only when it is sama, equal. That is, if you have three sthanis and five adeshas, you obviously cannot apply this. So this sutra says, wherever there are equal numbers of sthani and adesha, whenever a karya is happening between equal numbers, then you can take yathasankhya according to the order. Right? So, here in yamam yamilopaha, we use yathasankhya because you have yam and yam. So in all the cases, it is, there are 9 sthanis. Yam is the sthani. There are 9 yam. Yamangana. And you have yami. The nimitta is also 9. Right? So here, if we apply yathasankhya, the meaning would be, when yakara is followed by yakara, only then there is a lopa. When v is followed by v, there is a lopa. The lopa happens only when it is followed by the same yam letter. In Mahatmyam, you have mu and y. Since they are different, you will not get lopa. So, yathasankhya vijyanat neha. Right? So, this is the end of dvitva prasna. So, before that, I want to mention one more thing. I told that repha and hakara never get dvitva. It is because at the beginning of dvitva prakarana, in achorahabhyam dve, Panini uses them as the nimitta. Repha and hakara are the nimitta for dvitva. Right? So you are saying, if there is a ach which is followed by repha, which is in turn followed by a yar, that yar will get dvitva. So, since he is using repha and hakara as the nimitta for dvitva, in any further case, the repha itself will not get dvitva. Repha can always be only a nimitta for dvitva, only the reason or one of the conditions for dvitva. But repha will never get dvitva by itself. That is why when you go to dhatram shaha, even if the conditions are satisfied, repha will not get dvitva. It's a standard. Panini has used it as a nimitta and mandated that it is always only a nimitta and never a sthani, that it will never get dvitva by itself. So this ends dvitva prakarana. In dvitva prakarana, the dvitva vidhayaka sutras, we have two. One is achorahabhyam, which tells atashparabhyam repahakarabhyam parasyaraha dvitvam syat. And the other you have anachita, which tells atashparasya yaraha devastaha natuvacha. Dvitva nishedhasya ekam sutram ekam vartikam. Dvitva Nishedha is by one sutra, Nadinyakoshe Putrasya, and Avastika Tatparecha. For Dvitva Vikalpa, we have three sutras and Avastika. Vahata Chagdhayohu Vyosvikalpa, Triprabhutishu Shakatayanasya, Sarvatra Shakalyasya, and Dirgha Dasayana also end up giving optional Dvitva. Right? So, this measures two topics. Actually, three subtopics in Achsandhi. We dealt with Yantsandhi. Yantsandhi has only one sutra, which is Ikoyanati. When we look at Sthanivadbhava, we have two Sthanivadbhava Vidhayaka sutras. Sthanivadadesho Anal Vidhau and Adasparasvim Purva Vidhau. And then we also have one sutra which prohibits Sthanivadbhava, which is Napadanta, etc. Next, coming to Dvitva Prakaranam, we just now saw what all the Dvitva involved. Next, we move on to the actual Sandhi, another Sandhi, the next Sandhi, which is what is commonly known as Yantavantadesha Sandhi, in usual terms. So, why Yantavanta? Sure you know, but again, you see how Panini traces the sutta. The sutra for the next sandhi is Echoyavayavaha. Padadvayam asti. Echaha ityekam padam. Ayavayavaha ityekam padam. Prathama bahuvachanam. Ayavayavaha iti samasaha. Echaha. Iko yanati iti purva sutra. Iko yanati was 6177. So from the sutra, achi iti anuvartate. Echaha iti shashti vibhakti. Arthat echaha sthane. Shashti sthane yoga iti paribhashaya. Echaha sthane iti arthaha. Achi iti saptami vibhakti. Anuvartate. Achi pare iti eva arthaha. Tasmin iti vipreshte purva. Echaha achi pare. Ayavayavaha adeshaha shihu. Prathama vibhakti vidheyaha. Ayavayavaha echaha kramat ayu avu ayu avu ete shihu achi. Achi pare ech. Ech iti pratyaharaha. Yom ay ouch. Chatvaraha varanaha shakti. Tesham ete chatvaraha adeshaha shihu. Atrapi yathasandham adesha samanam. Ityasya upayogaha asti. Kramat. कथम एकारः ए ओ ऐ औ चत्वारः स्थानिनः चत्वारः आदेशाः क्रमात् समसंबंधी विधिः यथा संख्यं स्यात् विषये रेस्पेक्टिवली द एच लेटर्स आर रिप्लेस्ड बाय ऐ औ ऐ आ रेस्पेक्टिवली दिस मींस ऐ इज द आदेश फॉर ए औ फॉर ओ ऐ फॉर ऐ एंड आव फॉर औ See an example. We have Hare A. Hari Shabdasya Chaturthi Vibhaktau Ekavachane. Nye Pratyaye Pare Hari Shabdasya Gune Hare A. Ityasti. Nani Har A. A. Atra Ekaraha H. Ayam Ekaraha Ach. So, though A belongs to both Pratyaharas, here A is the Sthani and this is the Nimitta. The Nimitta is Ach. A belongs to the Ach Pratyahara. So this is H. Echaha Achipare Ayavayavaha. Now Ekara, as we saw, will get Ayu as the Adesha. Har Ayu E Haraye. Tirukum Siddhati. Haraye Haribhyam Haribhyaha. Chaturthiye Kavachane Haraye. Tirukum. Ayadesha Kurma. Atra Kashchana Prashnaha. Ayu Iti Adeshaha. Upadeshaha adyocharanam ityatra adyocharanam, the first case, the first instance where Panini mandates something is called an upadesha. So this echoyavayavaha is the first instance where Panini is declaring ayya. So this is upadesha. Ayya iti upadesha. Upadeshatvata halantyam iti sutrena. If you go back, the first sutra which we studied, halantyam. Upadeshe antyam hal ityat. The final consonant of any upadesha will get the samya it. Right? And we saw that it applies in all cases. It applies for adesha, for agama, for pratyaya, so on and so forth. Now this is an adesha. I mean, this is basically an upadesha. So in upadesha, the last letter, I, here is a hal. So halantyam iti sutrena yakarasya itsamya bhavatu iti apati. So the objection is, shall we do itsamya to yakara using halantyam? Since this is upadesha, this is antyam hal, the sutra can apply. Right? Ayya iti upadesha, halantyam iti itsamya. Fine, let us do itsamya. What's the problem? Tasya lopaha iti kinchana sutram asti. Paninihi प्रथमाध्यायस्य तृतीयपादे उपदेशे अजननासिकैत् इति इत्संज्ञा प्रकरणम् आरभते. हि बिगिन्स् द सेक्शन् आफ् सूत्रास् डीलिङ्ग् वित् इत्संज्ञा. हि हेस् स्टडीड् ओन्लि टू सूत्रास् विच् गिव् इत्संज्ञा. वन् इस् उपदेशे अजननासिकैत् अण्ड् अदर् इस् हलन्त्यम्. बट् इन् फ्याक्ट् देर् आर् सेवेन् सूत्रास् ऐ थिङ्क् विच् डील् वित् इत्संज्ञा. उपदेशे अजननासिकैत् हलन्त्यं न विभक्तौ तस्माः आदिर्गीटुडवः शः प्रत्ययस्य चुटु लशक्व तद्धिते. इति सप्तसूत्राणि इत्संज्ञा सम्बन्धीनि सन्ति. सो हविङ्ग् डिक्लेर्ड् इत्संज्ञा वित् आल् दीस् सूत्रास् पाणिनि सेस् तस्य लोपः. तस्य पदद्वयम् अस्ति. उपदेशे अजननासिक इत्यतः इत् इति अनुवर्तते. तस्य इतः लोपः स्यात् वेर् एवर् यु हाव् इत् संज्ञा फ्रम् वाट् एवर् सूत्र द इत् द लेटर् विच् गेट्स् इत् संज्ञा विल् बि डिलीटेड् एव्रिवेर्. इफ् यु हाव् ऐ उन् न इस् इत् इट् गेट्स् डिलीटेड्. If you go to a pratyaya karmanyena, again na is it, it will get deleted. Everywhere, it's a general rule. Tasya lopaha, wherever you have itsamya, immediately after declaring the itsamya, Panini says, delete it. So itsamya letters are never seen in a prayoga. Now, here, kechoyavayavaha, if you have ayu, and if you have itsamya for yakara, the yakara should be deleted by the sutra. Tasya lopaha. यकारस्य लोपे सति हरये इत्यत्र यकारस्य श्रवणं न स्यात्. देन् वी वुडन्ट् हियर् हरये. द रूप वुड् नाट् बि हरये. इट् वुड् बि संथिङ्ग् एल्स्. सो वाट् डु वी डु इति यवयोः लोपो न. यवयोः इन् ऐ आव् ऐ अव् ऐ आव् इन् आल् फोर् केसेस् इट्स् द सेम् थिङ्ग्. यु हव् ईदर् य आर् व् अट् द एण्ड् विच् इस् अ हल् विच् गेट्स् इट् संज्ञा वै हलन्त्यम्. हलन्त्यम् इत्यनेन इत्संज्ञायां सत्या तस्य लोपः इति लोपः अस्तु इत्यापत्तिः. किन्तु दीक्षितैः उच्यते यवयोः यकारवकारयोः लोपो न, लोपः न भवति. किमर्थम्? उच्चारणसामर्थ्यात्. इत्संज्ञा इस् आल्वेस् फार् सम् पर्पस्. दट् इस् वेन् एवर् यु लेबल् अ लेटर् आस् इत्संज्ञा एण्ड् डिलीट् इट् आफ्टर् डिलीशन् यु यूस् इट् फार् अ सम् पर्पस्. It's generally identification. It's like tagging a pratyaya. If a pratyaya has nakara as it, they all belong to a category called nit. So using nit you can do something. Like we saw, if an agama has til as the itsamya letter, all such agamas will be called tit. What is the point? Adyantau takitau. Since they are tit, we'll say you add them to the beginning. Like this, every case where there is an itsamya, there has to be some purpose. Without a purpose, there is no itsamya. Right? So in this case, if you see ayavayavaha, if you do itsamya and take off yakara and vakara, there is no purpose you are achieving. There is nowhere that the ya or va are used as an identification for the adesha. So it means there is no other purpose. So if there was no other purpose, then why did Panini pronounce those letters? Why did he have to say ay, av, ay, av? He could have just said a, whatever it was. Without the yakara or vakara. Uccharana samarthya. Because Panini has uttered those letters and because there is no other purpose to be achieved by deleting them, you will not delete them by tasya lopaha. Which means itsamya api iha na bhavati. Itsamya eva na bhavati. There is no itsamya for yakara and vakara. You cannot say that, okay, let them have itsamya and let us not delete it. It will not work that way. Itsamya itself does not happen. You do not have itsamya for you or v, because of which tasya lopaha will also not apply. And you are still left with haraye. The you remains. Right? Iti yavayoho lopona uccharana samathyat. एवं च इत्संज्ञा अपि इह न भवति. हरये इति यान्तवान्तादेशसन्धेः एकम् उदाहरणम्. अग्रे उदाहरणत्रयं दीयते दीक्षितैः. विष्णवे नायकः एण्ड् पावकः. सो ऐ एम् अस्यूमिङ्ग् यु आल् नो हौ टु स्प्लिट् दीस्. सो एन् असैन्मेण्ट् शार्ट्. देर् इस् नथिङ्ग् हियर् टु बि काल्ड् एन् असैन्मेण्ट्. बट् जस्ट् फैण्ड् औट् वाट् आर् द How do you split these and how do you actually apply Echayavayavaha? Check for the conditions if Echayavayavaha can apply and then give me the split form. Okay? So that ends today's lesson. Any doubts, please ask.
Samyaji, I have a question. In akroshe gamyamane, what would be the meaning of gamyamane?
Then it is implied. That is, akrosha is not directly told. There is no word which directly tells akrosha. So when anger is implied.
Okay.
So because why he puts that word is akroshe saptami. The thing is, you should not interpret as akroshe paresh. It is not when it is followed by the word akrosha. It means when the meaning of akrosha is being implied.
Oh, so gamyamane means it is understood, something like that?
Yes.
Okay. Okay, thank you.
Any other questions?
Samya ji, namaste. Yatha sankhyam anadesha samanam, I can understand that for echo yava yavaha because there is a sthani and adesha. You mentioned about sthani and adesha in this hello yami yamam.
It is not,
yes.
A bit hesitant about it. It does not, the sutra does not say adesha. It says
okay.
Anudesha. It's
okay.
Wherever you have a vidhi which involves two pairs of things which are in equal numbers. So here you have yamam is a sthani and yami is the nimitta. So it can also be when the sthani and the nimitta are in equal numbers, you can still have yathasanghi. The most common case where you find it is in adesha and sthani. That's why I used and then I realized that it was not exactly true.
Okay, okay. Thank you, sir.
Any other questions? Okay, if there are no questions, we can stop this for today. And we'll have, as usual, next Wednesday will be the next.
Sorry, Sadagopanji had raised his hand, so.
Hello. Sorry, I don't want to interrupt from the thing, slogan is being said. I will see it maybe next time. Thank you.
ేనాక్షరసమాం నాయం అధిగమ్య మహేశ్వరాత్ కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః వాక్యకారం వర రుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం మునిత్రయం నమస్కృత్య తదుక్తి పరిభావ్య చ వైయాకరణ సిద్ధాంత కౌముదీహ్యం విరచ్యతే ధన్యవాదాః